प्रथम स्कंध अथ त्रयोदशोध्याय विदुर जी के उपदेश से धृतराष्ट्र और गंधारी का वन में जाना। श्री सुत उवाच विदुरस्तीर्थयात्राया मैत्रेयादात्मन गति ज्ञात्वा गाधास्तिनपुरम तया वाप्त विवित्सित यावत कृतवान प्रश्नान छत्ता कौशारवाग्रत जातैक भक्तिर्गोविंदे तेभ्योपर राम तम बंधुमागतम दृष्ट्वा धर्मपुत्र सहानुज धृतराष्ट्रो युत्सुश्च सूत सारद्वत प्रथा गांधारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी अन्याश्च जामय पाण्डोर्ज्ञातय ससुता स्त्रिय प्रतिजग्मु प्रहर्षेण प्राणं तन्वैवागतम् अभिसंगम्य विधिवत् परिस्वंगाभिवादने मुमुचुः प्रेम वाष्पौघं विरहोत्कण्ठे कातरः राजा तमर्हयां चक्रे कृतासन परिग्रहं तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने प्रश्रयावनतो राजा प्राहतेषां च शृण्वतां युधिष्ठिर उवाच अपि स्मरथ नो जुष्मत् पक्षक्षाया समेधितान् विपद्गणाद् विषाग्न्यादिर्मोचिता यत्समात्रिकः कया वृत्त्या वर्तितव्यश्चरद्भिः क्षितिमण्डलम् तीर्थानि क्षेत्रमुख्यानि सेवितानिह भूतले भवद्विधा भागवतास्तीर्थभूतः स्वयं विभो तीर्थी कुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता अपि नः सुहृदस्तात् बान्धवः कृष्णदेवतः दृष्टः श्रुता वा यदव स्वपूर्जां सुखमाशते इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् यथानुभूतं क्रमशो विना जदुकुलक्षयम् नन्व प्रियं दुर्विषहं नृणां स्वयमुपस्थितम् नावेदयत् स कर्णो दुःखितान् द्रष्टुमक्षमहम् कञ्चित्कालमथावासीत् सत्कृतो देववत् सुखम् भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां प्रीतिमावहन् अविव्रदर्यमादण्डम् यथावद्दघकारिषु जावद्दधारशूद्रत्वम् सापाद्वर्षशतम् यमः युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलं धरं भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया एवं गृहेषु शक्तानां प्रमत्तानां तदीहया अत्यक्रामद विज्ञातः कालः परम दुस्तरः विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् प्रतिक्रिया न जस्येह कुतश्चित् कर्हिचित् प्रभो स एष भगवान् कालः सर्वेषां नः समागतः येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि जनः सद्यो विजुज्येत किमुतान्यैर्धनादिभिः पितृर्भ्रातृर्सुहृत्पुत्रा हतास्ते विगतं वयः आत्मा च जरया ग्रस्तः परगेहमुपाससे अहो महीयसी जन्तोर्जीविताशा जया भवान् भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत् अग्निर्निसृष्टो दत्तश्च घरो दाराश्च दूषितः हृतं क्षेत्रं धनं जेषां तद्दत्तैरसुभिः कियात् तस्यापितौ देहोऽयं कृपणस्य जिजीविषुः परैत्यनिच्छतो जीर्णो जरया वाससि इव गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः अविज्ञात गतिर्जह्यात् स वै धीर उदाहृतः यः शोकात् परतो वेह जात निर्वेदयात्मवान् हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः अथो दीचीं दिशं यातु स्वैरज्ञातं गतिर्भवान् इतोर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः एवं राजा विदुरेणानुजेन प्रज्ञा चक्षुर्बोधित आजमीढ छित्त्वा स्वेषु स्नेहपाशान् दृढिम्न निश्चक्राम भ्रातृसन्दर्शिताद्वा पतिं प्रयान्तं सुबलस्य पुत्री पति व्रता चानु जगाम साध्वी हिमालयम् न्यस्त दंड प्रहर्षम मनस्विनामिव सतसंप्रहारः अजात शत्रु कृत मैत्रो हुताग्निर्विप्रान्नत्वा तिलगो भूमि रुक्मही गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलिं च तत्र संजयमासीनं पप्रच्छोद्विग्नमानसः गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयः अम्बा च हतपुत्रार्ता पितृभ्यः क्व गतः सुहृत् अपि मय्य कृतप्रज्ञे हतबन्धुः सभार्यया आशंसमानः शमलम् गङ्गायाम् दुःखितो पतत् पितर्युपरते पाण्डवौ सर्वान्नः सुहृदः शिशून् अरक्षताम् व्यसनतः पितृभ्यो क्व गतावितः सुत उवाच कृपया स्नेह वैक्लव्यात् सूतो विरहकर्षितः आत्मेश्वरम् चक्षाणो न प्रत्याहाति पीडितः विमिज्याश्रूणिपाणिभ्याम् विष्टभ्यात्मानमात्मना अजातशत्रुम् प्रत्युचे प्रभोः पादावनुस्मरन् सञ्जय उवाच नाहं वेद व्यवसितम् पित्रुर्वः कुलनन्दन गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः अथा जगाम भगवान् नारदः सह तुम्बुरुः प्रत्युत्थायाभिवाद्याः सानुजोऽभ्यर्चयन्निव युधिष्ठिर उवाच नाहं वेद गतिम् पित्रोर्भगवन् क्व गतावितः अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी कर्णधार इव अपारे भगवान् पारदर्शकः अथावभासे भगवान् नारदो मुनिसत्तमः मा कञ्चन शुचो राजन् जदीश्वरवशम् जगत् लोकाः सपाला जस्य मे वहन्ति बलिमीषितुः स सन्नक्तिभूतानि स एव व्युनक्ति च यथा गावो नसि प्रोतास्तन्त्याम् बद्धा सोदाम्भि वाक्तन्त्याम् नामभिर्बद्धा वहन्ति बलिमीषितुः यथा क्रीडोपस्कराणाम् संयोग विगमाविह इच्छया क्रीडितुः स्याताम् तथैव स्वेच्छया नृणाम् जन्मन्यसे ध्रुवम् लोकम् अध्रुवम् वा न चोभयम् सर्वथा न हि स्वच्यास्ते स्नेहादन्यत्र मोहजात् तस्माज्जह्यङ्ग वैक्लव्यम् अज्ञान कृतमात्मनः कथम् त्वनाथा कृपणा वर्तेरंस्ते च माम् विना काल कर्म गुणाधीनो देहोऽयम् पाञ्च भौतिकः कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् फल्गूनि तत्र महताम् जीवो जीवस्य जीवनम् तदिदम् भगवान् राजन् एक आत्मात्मनाम् स्वदृक् अन्तरोऽनन्तरो भाति पश्यतम् माययोरुधा सोऽयमद्य महाराज भगवान् भूतभावनः कालरूपोऽवतीर्णोऽस्याम् अभवाय असुरद्विषाम् निष्पादितम् देवकृत्यम् अवशेषम् प्रतीक्षते तावज्जूयमवेक्षध्वम् भवेज्जावदिहेश्वरः धृतराष्ट्रः सहभ्रात्रा गान्धार्या च स्वभार्यया दक्षिणेन हिमवत ऋषीणामाश्रमम् गतः श्रुतोभिः सप्तभिर्या वै स्वर्धूनि सप्तधा व्यधात् सप्तानाम् प्रीतये नाना सप्त श्रोतः प्रचक्षते स्नात्वा अनुशमनम् तस्मिन् हुत्वा चाग्निञ्जथाविधि अभक्ष उपशान्तात्मा स यास्ते विगतैषणः जितात्मनो जितश्वास प्रत्याहृत्सदिन्द्रियः हरिभावनया ध्वस्त रजः सत्त्वतममलः विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्यतम् ब्रह्माण्यात्मानमाधारे घटाम्बरमिवाम्बरे ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः तस्यान्तरायो मैवाभूसन्न्यस्ताखिलकर्मणः सवा अद्यतनाद्राजन परतः पंचमे हनी कलेवरम हास्यति स्वं तच्च भस्मे भविष्यति दह्यमानेग्न भीर्देहे पत्युः पत्नी सहोटजे बहिस्थिता पतिं साध्वी तमग्नि मनुवेक्षति विदुरस्तु तदाश्चर्यं निशाम्य कुरु नन्दन हर्ष शोक युतस्तस्माद् गन्ता तीर्थनिसेवकः इत्युक्त्वाथारुहत् स्वर्गं नारदः सह तुम्बुरु युधिष्ठिरो वचस्तस्य हृदि कृत्वा जहाश्चः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां प्रथमस्कन्धे नैमिषोपाख्याने त्रयोदशोऽध्यायः।